इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी श्वः नवदिल्ल्याः भारतमण्डपमस्थले राष्ट्रिययुवदिवसस्यावसरे 25,000+ विकसित भारत युवनेत्री संवाद कार्यक्रमे सहभागं करिष्यति। एषः संवाद कार्यक्रमः यूनाम् आदर्शस्य भारतस्य आध्यात्मिक नेतृषु अन्यतमस्य स्वामी विवेकानन्दस्य जयन्त्युपलक्ष्ये भवति। संवादावधौ श्रीमोदी देशस्य 3,000 यावत् युवनेतृभिः समं संवादं समाचरिष्यति। प्रधानमन्त्री दशसु विषयेषु प्रतिभागिभिः लिखितानां सर्वश्रेष्ठानां निबन्धानां संकलनमपि विमोचयिष्यति। प्रधानमन्त्री तदनु युवनेतृभिः साकं मध्याह्नभोजने सम्मिलितो भविष्यति, यत्र असौ युवनेतृणाम् अनुभवान् विचारान् आकांक्षाः च श्रोष्यति। प्रधानमन्त्री श्रीमोदी उक्तवान् यत् असौ 2047 ख्रिस्ताब्दं यावत् विकसितं भारतं निर्मातुं याः समस्याः सन्ति तासां समाधानानि वाञ्छति। असौ सबलं प्रतिपादितवान् यत् सर्वकारीय योजनानां 100% जनप्रापणं भवेदिति। अयमेव वास्तविकः सामाजिकन्यायः धर्मनिरपेक्षता च वर्तेते। भारतस्य अग्रिमोद्यमिना निखिलकामथेन समं एकस्मिन् साक्षात्कारे प्रधानमन्त्रिणा उक्तं यत् मनुष्यत्वेन तस्मादपि च्युतयः सम्भवाः, परञ्च ताः कदापि दुर्भावयुताः न भवितुं शक्नुवन्ति। राष्ट्रपतिपदासीना द्रौपदी मुर्मुः अवोचत् यत् भारतीयप्रवासिनः जनाः सर्वेषु क्षेत्रेषु यथा औषधप्रविधि प्रभृतिषु उत्तमं प्रदर्शनं कुर्वन्तः सन्ति। राष्ट्रपतिः 18वें प्रवासी भारतीय दिवस सम्मेलनस्य समापन समारोहे भाषमाणा आसीत्। अयं कार्यक्रमः भुवनेश्वरस्य जनता मैदान इत्यस्मिन् स्थाने समायोजितः। अस्मिन्नवसरे राष्ट्रपतिः 27 भारतीय प्रवासिभ्यः विविध क्षेत्रेषु उत्कृष्टतायै प्रवासी भारतीय सम्मानमपि प्रदत्तवती। अत्रावसरे राष्ट्रपतिः प्रावोचत् यत् प्रवासी भारतीयाः देशस्य अभिज्ञानं वर्तन्ते, अपि च विदेशेषु निवसन्तः भारतीयाः न केवलं भारतदेशे अर्जितानि ज्ञानानि कौशलान् च वहन्ति, अपितु ते 1,000 यावत् भारतीय संस्कृतेः आधारगतमूल्यानि लोकाचारान् च प्रदर्शयन्तीति। केन्द्रीय गृहमन्त्री अमितशाहः अद्य नवदिल्ल्यां मादकपदार्थानां व्यवसायस्य राष्ट्रियसुरक्षायाः च विषये क्षेत्रीयसम्मेलनस्य अध्यक्षतां करिष्यति। स्वापक नियन्त्रण विभागद्वारा आयोक्ष्यमाणस्य अस्य सम्मेलनस्य उद्देश्यं मादकपदार्थानां अवैधरीत्या प्रचल्यमाणस्य व्यापारस्य वर्धमानायाः चिन्तायाः तथा च राष्ट्रियसुरक्षायाः उपरि तस्य प्रभावस्य निराकरणमिति वर्तते। उत्तरप्रदेशस्य मुख्यमन्त्री श्रीयोगी आदित्यनाथः ऐषमो महाकुम्भाय समर्पितायाः आकाशवाण्याः कुम्भवाणी वाहिन्याः शुभारम्भं विहितवान्। अस्मिन्नवसरे भाषमाणः मुख्यमन्त्री विश्वासं प्रकटितवान् यत् कुम्भवाणी न केवलं लोकप्रियतायाः नवीनतां शीर्षतां प्राप्स्यति, अपितु महाकुम्भस्य अभावं सुदूरवर्तेषु ग्रामेषु निवसतां जनानां मध्ये प्रापयिष्यति, ये हि भौतिकरूपेण अस्य ऐतिहासिकमहोत्सवे भागं न ग्रहीतुम् अशक्नुवन्। अस्मिन्नवसरे कुम्भ मंगलध्वनिः अपि लोकार्पितः। दिल्ली विधानसभा निर्वाचनाय अधिसूचना प्रसारिता। अनया अधिसूचनया सह 70-सदस्यात्मकेभ्यः विधानसभासनेभ्यः नामांकन प्रक्रिया समारब्धा। प्रत्याशिनः जनवरी मासस्य 17 यावत् नामांकनपत्राणि पूरयितुं शक्नुवन्ति। तत्रैव नामांकन प्रत्यावर्तनस्य अन्तिमं दिनं जनवरी मासस्य 20 दिनांको वर्तते। इति वार्ताः।